एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। देशस्य विभिन्नेषु स्थानेषु अविरल वृष्टेः कारणेन पञ्च मुख्य राजमार्गाः अवरुद्धाः सन्ति। त्रय राजमार्गाः एकपक्षतः सञ्चालिताः सन्ति। प्रहरी प्रधान कार्यालयस्य अनुसारेण वृष्टेः कारणेन बागमती प्रदेशस्य सिन्धुपाल्चोक जनपदस्य भोटेकोशी ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य कोदारी स्थानस्य, भोटेकोशी ग्रामपालिकायाः तृतीय ओडा क्षेत्रस्य लार्चा स्थानस्य, भोटेकोशी ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य कोप्लाङ स्थानस्य च अरणीको राजमार्गः पूर्णतः अवरुद्धोऽस्ति। एवमेव कर्णाली प्रदेशस्य डोल्पा जनपदस्य त्रिपुरा सुन्दरी नगरपालिकायाः प्रथम ओडा क्षेत्रस्य छलघाट स्थानस्य भेरी तटीय मार्गः, सुदूरपश्चिम प्रदेशस्य दार्चुला जनपदस्य महाकाली नगरपालिकायाः पञ्चम ओडा क्षेत्रस्य गोकुलेश्वर खलंगा राजमार्गस्य अवरुद्धोऽस्तः। एवमेव वृष्टेः कारणेन अवरुद्धा त्रय प्रमुख मार्गाः एकपक्षतः सञ्चालिताः सन्ति। जुम्ला जनपदस्य जुम्ला मुगु मार्गः, गुल्मी जनपदस्य कालीगण्डकी तटीय मार्गः, धनकुटा जनपदस्य रवि राके भेडेटार मार्गस्य एकपक्षतः सञ्चालिताः वर्तन्ते। सिन्धुपाल्चोक जनपद प्रशासन कार्यालयेन आषाढ मासस्य सप्तमं दिवसं यावत् भोटेकोशी सुनकोशी नद्यौ परितः स्थिताः स्थानीयाः जनाः सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। सिन्धुपाल्चोक जनपद कार्यालयस्य अनुसारेण चीन देशस्य प्रहरी कार्यालयात् प्राप्तायां सूचनायां नद्यां महतः जलविप्लवस्य सम्भावना अस्ति इति उल्लिखितं वर्तते। विशेषरूपेण भोटेकोशी ग्रामपालिकायाः, बारबिसे नगरपालिकायाः, त्रिपुरा सुन्दरी ग्रामपालिकायाः, सुनकोशी ग्रामपालिकायाः, बलेफी ग्रामपालिकायाः, चौतारा सांगाचोक गढ़ी नगरपालिकायाश्च भोटेकोशी सुनकोशी नद्यो तटीय क्षेत्रेषु संकटम् आपतितुं शक्नोति त्यतः तेषु क्षेत्रेषु निवसन्तः जनाः सावधानताम् अवलम्बितुं जनपद प्रशासनेन अनुरुद्धा वर्तन्ते। पश्चात्तन सामयिक राजनीतिक विषयेष् सत्तारूढ दलयो शीर्षस्थ नेतृष् विमर्शनं सम्भूतमस्ति। बालुआचारवर्तिनि प्रधानमन्त्री निवासे नेकपा एमाले दलस्य अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः, नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देउवाभिदस्य च मध्ये विमर्शनं सम्भूतमस्ति। संसदीय राष्ट्रोपा दलेन राप्रपा दलेन च विहितस्य विरोधस्य विषये अन्येष् राजनीतिक विषयेष् च अनयोर्मध्ये विमिष्टम् स्थिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ निगदति सर्वकारीय सेवा विधेयकम् अन्तिमे चरणे प्राप्तमस्ति। असैव आषाढ मासस्य द्वितीय दिवसे उपविष्टस्य मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता मन्त्री गुरुङ राज्य व्यवस्था सुशासन समितेः प्रतिवेदनस्य प्राप्ते अनन्तरं विधेयकमिदं अग्रे वर्धिष्यते इति असूचयत्। मन्त्री परिषदः उपवेशेन प्रधानमन्त्रिणः केपी शर्मा ओलिनः आषाढ मासस्य षोडश दिवसात् एकविंशं दिवसं यावत् आयोक्ष्यमाणं स्पेन देशीय भ्रमणं स्वीकर्तुं निर्णीतमस्ति। उपवेशेन संचार सूचना प्रविधि मन्त्रिणः गुरुङ इत्यस्य विदेश भ्रमणं स्वीकृतमस्ति। एवमेव मन्त्री परिषदः उपवेशेन विश्वकोषात् प्राप्तं विंशतेः अब्जानां उनाशीतेः कोटीनां च रूप्यकाणां सहयोगं स्वीकर्तुं, दक्षिण कोरिया सर्वकारात् समावेशी ग्रामीण विकास परियोजनायाः कृते प्राप्तं एकादशस्य नवतेः कोटीनां च अनुदान सहयोगं स्वीकर्तुं च निर्णीतमस्ति इति सर्वकारस्य प्रवक्ता मन्त्री गुरुङ असूचयत्। श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयेन इजरायल इरान देशयोर्मध्ये सम्प्रति विकसितायाः परिस्थितेः कारणेन वृत्त्युपार्जनस्य क्रमे तत्र असुरक्षावस्थायां स्थितानां नेपाली श्रमिकाणां सुरक्षार्थं कूटनीतिक नियोगाय आवश्यक पूर्व कार्याणि विधातुं परराष्ट्र मन्त्रालयाय अनुरोद्धुं निर्णीतमस्ति। श्रम मन्त्रालयस्य सचिवस्य कृष्णहरि पुष्करस्य संयोजकत्वे उपविष्टेन सम्बद्ध पक्षाणाम् उपवेशेन नेपाली नियोगस्य माध्यमेन इजरायल देशे इरान देशे अन्येष् प्रभावितेष् प्रतिवेशी राष्ट्रेष् च विद्यमानानां नेपालीनां विवरणम् अद्यावधिकीकर्तुं निर्णीतमस्ति। उपवेशेन नेपाली नियोगस्य समन्वयेन वैदेशिक वृत्त्युपार्जनाय तत्र विद्यमानानां नागरिकाणाम् आवश्यक सुरक्षां विचार्य उपयुक्त परामर्शनं प्रदातुं सूचनां प्रकाशयितुं च निर्णीतमस्ति इति मन्त्रालयेन ज्ञापितं वर्तते। इजरायलदेशे ईरानदेशे अन्येषु प्रभावितेषु प्रतिवेशी राष्ट्रेषु च विद्यमानानां नेपालीनाम् आवश्यकतायाः अनुसारेण सहयोगोद्धाराभ्यां सह स्वदेशं प्रति आनयनस्य अवस्थायां सत्यां तृतीयदेशस्य मार्गः प्रयुक्तव्यश्चेत् प्रतिवेशी राष्ट्रैश्च समन्वयं विधाय उद्धाराय प्रयासं कर्तुं च निर्णीतं वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति जनतायाः जीवनस्तरस्य सुधारः समृद्धिश्चैव अस्माकं संविधानस्य संघीय लोकतान्त्रिक गणतन्त्रस्य च अभिश्रेष्टः। पूर्वेद्युः पुष्पलाल राष्ट्रिय पुरस्कार वितरण समारोहं सम्बोधयन् राष्ट्रपतिः पौडेलः अग्रजनेतॄणां संघर्षेण त्यागेन नेपाली जनतायाः विपुल बलिदानाच्च संघीय लोकतान्त्रिक गणतन्त्रं प्राप्तमस्ति इति प्रावोचत्। राष्ट्रपति पौडेलः पुष्पलालस्य चिन्तनं नेपाली वामपन्थीनां लोकतान्त्रिक प्रक्रियायां रूपान्तरणाय एकः महत्वपूर्णः वैचारिकाधारोऽस्ति इति चर्चयन् पुष्पलालस्य विचारः उपयुक्तः आसीदिति विषयः षट्चत्वारिंशदुत्तर द्विसहस्रतम विक्रमवर्षस्य परिवर्तनेन पुष्टीकृतोऽस्ति इति अगदत्। तदवसरे राष्ट्रपतिना पौडेलेन शान्ता मानवी, डाक्टर मेदिनी प्रसाद सिराई, राममणि पोखरेलश्च सम्मानिताः। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायाम् उच्चस्तरीय सुशासन आयोगस्य प्रथमोपवेशः सम्पन्नोऽस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य सम्पन्ने उपवेशे आयोग संघटनस्य उद्देश्यस्य कार्यक्षेत्र निर्धारणस्य प्राथमिकतायाः कार्यसूचेश्च विषयेषु परिचयात्मकं विमर्शनं सम्भूतमस्ति। आयोगे राजनीतिक दलानां विज्ञानां नैज क्षेत्रस्य प्रतिनिधीनां समनुनयनं शीघ्रं विधाय आगामिनि सप्ताहे द्वितीयं पूर्णोपवेशं निर्धारयितुं निर्णीतमस्ति इति ज्ञापितं वर्तते। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षम् आदिवासी जनजात्यायोगेन काष्ठमण्डप तराई मधेश द्रुत मार्गायोजनायाः प्रारम्भबिन्दुं ललितपुरस्य गोदावरी नगरपालिकायाः अष्टमवडा क्षेत्रवर्तिनी डुकुछापस्थाने स्थानान्तरयितुं परामर्शेन सहितस्य अध्ययन प्रतिवेदनस्य ह्य हस्तान्तरणं विहितमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये आयोगस्य अध्यक्षेण रामबहादुर थापा मगर इत्यनेन प्रधान मन्त्रिणे ओलिने प्रतिवेदनं हस्तान्तरितमस्ति इति समाचारः।